सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्. प्रथमतया अहम् एकं श्लोकं वदामि. मतयो यत्र गच्छन्ति तत्र गच्छन्ति वानराः, शास्त्राणि यत्र गच्छन्ति तत्र गच्छन्ति वैनराः. इत्युक्ते मनः यत्र गन्तुमिच्छति तत्र ये जनाः धावन्ति ते वानराः, परन्तु शास्त्राणि यत्र गच्छन्ति अथवा श्रुतयः यत्र गच्छन्ति अथवा विवेकिनः पुरुषाः यत्र गच्छन्ति तत्र ये जनाः गन्तुमिच्छन्ति ते एव मानवाः. एष एव नरवानरयोः भेदः. एतत् अस्माभिः अवगन्तव्यम्. अपि च वयं सर्वे संस्कृतं सम्यक् अधीत्य शास्त्राणि यत् बोधयन्ति तत् सम्यक् रीत्या अवगम्य ज्ञानार्थं प्रयत्नं कुर्मः चेत् न केवलं वयम् उन्नताः अपि तु उत्तमाः अपि भवितुं शक्ष्यामः. तदर्थमेव प्रथमं सोपानमस्ति इदं भाषाध्ययनम्. अतः अद्य वयं संस्कृतभाषायाः अवगमनार्थं किञ्चित् अत्र प्रयत्नं कुर्मः. अहं चिन्तयामि भवन्तः सर्वे अपि सिद्धाः इति अहं चिन्तयामि. सर्वेषां पुनः एकवारं स्वागतम्. अत्र गते सप्ताहे वयं विशेषक्रियापदानां विषये अभ्यासं कृतवन्तः, अपि च कति कुत्र इति पदद्वयमपि ज्ञातवन्तः. इत्युक्ते कति कुत्र इति तयोः उपयोगः कदा भवति इत्यपि वयं ज्ञातवन्तः गते सप्ताहे. अद्य इतोपि नूतनानि पदानि ज्ञास्यामः. किञ्चित् कालपर्यन्तं वयं गृहपाठविषये चिन्तनं कृत्वा अनन्तरम् अभ्यासपुस्तकं प्रति गच्छामः. अहं गृहपाठं प्रेषितवती. गृहपाठः कः इति कः वदति? अत्र लक्ष्मीभगिनी भवती वदति वा गृहपाठः किमासीत्?
Write the moral of the story.
भवती कृतवती वा?
आम्.
श्रावयतु, त्रीणि वाक्यानि रचयतु. रचितवती वा?
सर्वं स्वकार्यं कुर्वन्तु.
अत्र पुनः तदेव वाक्यं श्रावयतु.
सर्वे स्वकार्यं कुर्वन्तु.
उत्तमं. प्रथमवारं किम् उक्तवती भवती? सर्वे स्वकार्यं कुर्वन्तु. सर्वे स्वकार्यं कुर्वन्तु. इतोपि वदतु भगिनि.
वयम् आलसं न भवामः. आलस्यम्.
उत्तमं वाक्यं. किञ्चित् समीकरोतु.
वयम् आलस्यं न भवामः.
वयम् अलसाः. वयम् अलसाः न भवामः. अथवा वयम् आलस्यं न कुर्मः. इतोपि अन्यानि वाक्यानि, अन्यं वाक्यमपि श्रावयतु.
सर्वे नियमपालनं कुर्वन्तु.
उत्तमं वाक्यं. सर्वे नियमपालनं कुर्वन्तु. उत्तमं वाक्यं भगिनि, धन्यवादः. अनन्तरम् अत्र राजीव् महोदय, भवान् लिखितवान् वा कथायाः नीतिः?
अलसः बालकाः समयमूल्यं न जानन्ति.
उत्तमम्. उत्तमं. पुनः तदेव वाक्यं वदतु.
बालकः समयमूल्यं न जानन्ति.
किञ्चित् समीकरोतु. उत्तमं वाक्यमेव, सम्यक् रीत्या लिखितवान् भवान्. अलसः बालकः समयमूल्यम् इत्युक्ते तत्र इत्युक्ते समयस्य मूल्यं समयस्य मूल्यं
न जानन्ति.
क्रियापदं किञ्चित् समीकरोतु. कः करोति? करोतु महोदय.
बहुवचन राइट.
अलसः बालकः. अलसः बालकः एकः एव बालकः तत्र. भवान् कर्तृपदम् एकवचने अस्ति
तदर्थं
वदतु.
अलसः बालकः समयस्य मूल्यम्
उत्तमं. तावत्पर्यन्तं सम्यक् एव. क्रियापदं कथं
जानन्ति इस् अ बहुवचन राइट.
किमर्थं बहुवचनं? तत्र बहुवचनस्य आवश्यकता एव नास्ति. किमर्थम् अलसः बालकः समयस्य मूल्यं न जानाति?
जानाति.
जानन्ति इति योजयित्वा वदामश्चेत् वदतु. अन्यं वाक्यं रचयतु. जानन्ति बहुवचनरूपं, परन्तु तस्मिन् वाक्ये कर्तृपदम् एकवचने एव अस्ति. अलसः बालकः, सः न जानाति. किं न जानाति? सः समयस्य मूल्यं न जानाति. दोषः अवगतः वा महोदय? वदतु. अधुना जानन्ति जानन्ति योजयित्वा वदतु. अन्यं वाक्यं रचयतु. कः वदति अत्र? भवान् चिन्तयतु अत्र. कादम्बरी भगिनी भवती वक्तुमिच्छति वा जानन्ति योजयित्वा? नो चेत् सुब्बारमहोदय भवान् वदति वा जानन्ति? वदतु महोदय.
बालकाः समयः मूल्यः न जानन्ति.
न जानन्ति तत्तु सम्यक् एव, परन्तु मध्ये अन्यानि पदानि सन्ति, तान्यपि समीकृत्य वदतु. बालकाः, अलसाः बालकाः.
अलसाः बालकाः
किं न जानन्ति?
समयः मूल्यम्.
समयस्य मूल्यं.
समयस्य मूल्यं
यदि वयं समासं समयस्य मूल्यं न जानन्ति, तत्र यदि वयं समासं कुर्मः चेत् तत्र समयमूल्यम् अथवा समयस्य मूल्यं न जानन्ति. उत्तमम्. अनन्तरं भवान् लिखितवान् वा कथायाः नीतिः का इत्यस्मिन् विषये वाक्यानि रचितवान् वा? श्रावयतु महोदय.
वयम् अलसः न शक्नुमः.
वयम् अलसः
न शक्नुमः.
तत्र शक्नोति इति क्रियापदं, तस्य उपयोगं कथं कुर्मः? वयं चिन्तितवन्तः, वयं पूर्वमेव ज्ञातवन्तः शक्नोति, शक्नोमि, शक्नुमः, शक्नुवन्ति. कथम् उपयोगं कुर्मः? किञ्चित् समीकृत्य वदतु तदेव वाक्यं.
वयम् अलसः न
भवितुं
न
वयम् अलसाः भवितुं
न शक्नुमः.
न शक्नुमः अथवा न शक्ष्यामः, तदपि समीचीनं. अन्यं वाक्यं श्रावयतु.
सर्वे स्वकार्यं कुर्वन्तु.
सर्वे स्वकार्यं कुर्वन्तु. उत्तमं.
बालकाः प्रतिदिनं विद्यालयं समयेन गमिष्यन्तु.
बालकाः बालकाः पुनः पुनः एकवारं वदतु.
बालकाः प्रतिदिनं विद्यालयं समयेन गमिष्यन्तु.
गमिष्यन्तु इत्युक्ते गच्छन्तु एव. उत्तमम्. इतोपि वाक्यमस्ति वा? अन्येषां पार्श्वे कानिचन वाक्यानि सन्ति चेत् श्रावयन्तु, यदि भवन्तः लिखितवन्तः चेत्. नो चेत् अहं कानिचन वाक्यानि श्रावयामि कथायाः नीतेः विषये. कानिचन वाक्यानि वदामि, शृण्वन्तु. केवलम् आस्वादार्थं वदामि. अत्र कथायाः नीतिः का इत्यस्मिन् विषये स्वस्य दोषम् अवगन्तव्यम्, स्वस्य अपराधम् अथवा दोषम् अवगन्तव्यम् अथवा दोषं ज्ञातव्यम्. तथा एव अनन्तरं सर्वे जन्तवः अथवा पक्षिणः स्वस्य कार्येषु सर्वदा व्यस्ताः अथवा निमग्नाः भवन्ति. प्रकृतेः नियमान् अनुसृत्य सर्वे जन्तवः स्वस्य कार्याणि कुर्वन्ति. तथा एव वयमपि मानवाः स्वस्य कार्याणि समयेन करणीयानि. इत्युक्ते परन्तु वयं यदा कदापि नियमपालनं कर्तुं न इच्छामः यदा कदापि. तत् किमर्थम् इत्युक्ते केवलं तत्र अलसत्वम् एव हेतुः, अलसत्वमेव कारणं. तदर्थमेव अलसाः मा भवन्तु, समयेन कार्याणि कुर्वन्तु. सर्वेषां पार्श्वे समयसारणी अस्ति चेत् समयसारणीम् अनुसृत्य कार्याणि कुर्वन्तु. समयसारणी इत्युक्ते कः वदति?
टैम् टेबल्.
उत्तमं. समयसारणीम् अनुसृत्य कार्याणि कुर्वन्तु. तिथिलिका इव कार्यं कुर्वन्तु. तदानीम् एव वयं कार्ये सफलाः अथवा कृतफलाः भवामः, कृतफलाः भवितुं शक्ष्यामः. तथा वयं कानिचन वाक्यानि रचयितुं शक्नुमः. अनन्तरं सर्वेषां पार्श्वे अहम् एकं करपत्रं प्रेषितवती. सर्वनामपदानि नाम्ना एकं करपत्रमस्ति. सर्वेषां पार्श्वे करपत्रं स्थापयन्तु. एकवारं करपत्रं दृष्ट्वा कानिचन वाक्यानि रचयामः. अत्र विलम्बेन केनापि आगतं वा? अत्र गीताञ्जलि भगिनी भवती प्रथमवारम् आगतवती वा अद्य? अत्र गीता भगिनी अस्ति, प्रथमवारम् आगतवती वा? भवती भागम् ओढुमिच्छति वा? नो चेत् केवलं शृणोति वा भगिनी? संस्कृतभाषां अवगन्तुं शक्नोति वा भवती? केन् यु अण्डर्स्टाण्ड् द सिम्पल् संस्कृत्? जस्ट् वाण्ट् टु पार्टिसिपेट्? वदतु भगिनि.
Very, very simple, yes.
अस्तु भगिनि. अद्य अधुना वयं किं कुर्मः इत्युक्ते, यदि भवती भागम् ओढुमिच्छति चेत् सम्यक्, नो चेत् अद्य केवलं शृणोतु. आगामिसप्ताहे अत्र भागं वहतु. अत्र सर्वनामपदानि इति करपत्रमस्ति. अत्र लक्ष्मी भगिनी भवती करपत्रं किञ्चित् पठति वा? अस्मिन् करपत्रे किम् अस्ति?
सर्वनामपदानि.
सर्वनामपदानि एकवारं वदतु. प्रथमपुरुषे कर्तृपदानि कानि? पठतु एकवारं.
सः, तौ, ते, सा, ते, ताः, तत्, ते, तानि, भवान्, भवन्तः, भवन्तः, भवती, भवत्यौ, भवत्यः, सर्वः, सर्वौ, सर्वे, सर्वा सर्वे सर्वाः सर्वं सर्वे सर्वाणि
उत्तमम् उत्तमम् इत्युक्ते भवती एकमेकं पदं स्वीकृत्य एकवचनं द्विवचनम् अपि च बहुवचनं बहुवचनं त्रीणि रूपाणि उक्तवती उत्तमम् अनन्तरं मध्यमपुरुषकर्तृपदानि कानि
त्वं युवां यूयम्
उत्तमम् उत्तमपुरुषे
अहम् आवां वयम्
अहम् आवां वयम् अस्मिन् करपत्रे सर्वशब्दमपि दत्तमस्ति पुनः एकवारं सर्वशब्दं वदतु कथं वक्तव्यं सर्वशब्दं सर्वे शृण्वन्तु पुंलिङ्गे वदतु सर्वशब्दं पुंलिङ्गे वदतु एकवारं
सर्वः सर्वौ सर्वे
स्त्रीलिङ्गे
स्त्रीलिङ्ग सर्वा सर्वे सर्वाः
नपुंसकलिङ्गे
सर्वं सर्वे सर्वाणि
उत्तमम् यथा सर्वशब्दः अस्ति तथा एव अन्यानि सर्वनामपदानि शब्दाः अपि सन्ति इत्युक्ते अन्यशब्दः अपि तथा एव कुर्मः अन्यः अन्या अन्यं तथा एव कुर्मः तदा कानिचन अन्यानि पदानि अपि सन्ति परन्तु अस्मिन् करपत्रे प्रथमपुरुषे कर्तृपदानि मध्यमपुरुषे अपि च उत्तमपुरुषे कर्तृपदानि दत्तानि परन्तु अस्माकम् अभ्यासपुस्तके केवलं प्रथमपुरुषे एकवचनम् अपि च बहुवचनं उत्तमपुरुष एकवचनम् अपि च बहुवचनमेव रूपाणि एव दत्तानि परन्तु मध्यमपुरुषरूपाणि अपि च द्विवचनरूपाणि न दत्तानि अग्रे गत्वा वयं सर्वे तान्यपि ज्ञास्यामः यदि भवन्तः जिज्ञासवः भवन्ति चेत् अस्मिन् करपत्रे कानिचन नूतनानि पदानि अपि सन्ति अधुना वयं किं कुर्मः इत्युक्ते एकम् एकं पदं स्वीकृत्य वाक्यानि रचयामः सः योजयित्वा वाक्यं रचयति भगिनि
सः वदति
अनन्तरं द्विवचने अपि च बहुवचने
तौ वदतः ते वदन्ति
उत्तमम् उत्तमम् अनन्तरं सा योजयित्वा वदतु तदेव वदति एव वदति एव क्रियापदं स्वीकृत्य रचयतु
सा वदति ते वदतः ताः वदन्ति
अनन्तरं तत् योजयित्वा वदतु
तत् वदति ते वदतः तानि वदन्ति
उत्तमम् अपि च भवान् योजयित्वा वदतु
भवान् वदति भवन्तौ वदतः भवन्तः वदन्ति
अपि च भवती
भवती वदति भवन्तौ वदतः भवत्यः वदन्ति
भवत्यः वदन्ति तथा एव सर्वः सर्वा सर्वं तदपि तथा एव कुर्मः मध्यमपुरुषे अपि एकं वाक्यं रचयतु एकवचने
त्वं वदसि युवां वदत यूयं वदत
किञ्चित् अवधानं दत्वा किञ्चित् उच्चैः वदतु किञ्चित् उच्चैः वदतु सम्यक् रीत्या आम् अत्र मध्यमपुरुषे त्वं
त्वं वदसि युवां वदतः
उत्तमं
यूयं वदत
यूयं वदत अपि च उत्तमपुरुषे
अहं वदामि आवां वदावः वयं वदामः
उत्तमं भगिनी धन्यवादः सर्वे श्रुतवन्तः वा भगिनी उत्तमरीत्या उक्तवती तथा एव वाक्यानि रचनीयानि अस्मिन् करपत्रे प्रथमपुरुषे अपि च मध्यमपुरुषे उत्तमपुरुषे कर्तृपदानि सन्ति एकम् एकं क्रियापदं स्वीकृत्य तथा वाक्यानि रचयितुं शक्नुमः कोऽपि अन्यः वाक्यरचनां कर्तुं शक्नोति वा? सुब्बर महोदय, भवान् करोति वा? गच्छति, गच्छति इति क्रियापदं स्वीकृत्य नववाक्यानि रचयतु.
सः गच्छति, तौ गच्छतः,
उत्तमं,
ते गच्छन्ति, सा गच्छति, ते गच्छतः, ताः गच्छन्ति,
उत्तमं,
तत् गच्छति, ते गच्छतः, तानि गच्छन्ति,
उत्तमं. मध्यमपुरुषे वदतु महोदय.
मध्यमपुरुषः, त्वं गच्छसि, युवां गच्छतः, गच्छतः, यूयं गच्छथ,
उत्तमं. उत्तमपुरुषे,
अहं गच्छामि, आवां गच्छावः, वयं गच्छामः.
उत्तमं महोदय, धन्यवादः. तदेव इत्युक्ते तथा एव वाक्यानि रचनीयानि. अनन्तरं वयं किं कुर्मः इत्युक्ते, गते सप्ताहे अहम् एकं लेख्यबन्धं प्रेषितवती, इत्युक्ते एक एस्से, ऐ हेव् सेण्ट् एन् एस्से, किञ्चित् कालपर्यन्तं लेख्यबन्धं पठित्वा तत्र किमस्ति इति वयं ज्ञास्यामः. अधुना वयं किं कुर्मः इत्युक्ते, अत्र अत्र राजीव् महोदय, एकवारं तत् करपत्रं पुरतः स्थापयित्वा एकवारं पठतु महोदय. वर्षाकालः नाम्ना.
आं भगिनि, वर्षाकालः, वर्षाकालः, वर्षाकाले गगने मेघः भवन्ति, ते गर्जन्ति, सोदमेन्यः स्फुरन्ति, सर्वत्र जलं भवति, ग्रामे मार्गाः पक्मयाः भवन्ति, वर्षाकाले मण्डूकः नृतन्ति, मयूरः नृत्यन्ति, वृक्षः पल्लवितः भवन्ति, बीजानि अङ्कुरितानि भवन्ति, क्षेत्राणि जलपूर्णानि सस्यसमृद्धानि च भवन्ति, कृषकः कृषि कुर्वन्ति,
ते किं कुर्वन्ति,
कृषिं कुर्वन्ति, कृषिं कुर्वन्ति, ते क्षेत्रेषु बीजानि वपन्ति, सस्यानि वर्धयन्ति, ते प्रसन्नः भवन्ति, वर्षाकाले जलाशयाः पूर्णः भवन्ति, कूपः अपि पूर्णः भवन्ति, नद्यः जलेन परिपूर्णः भवन्ति, वर्षाकाले जनः छत्रं धृत्वा गच्छन्ति,
उत्तमं,
बालकः नौकः निर्माय कुल्यासु पलायमयन्ति, वृष्टिकारणतः देशस्य धान्यसमृद्धिः अधिका भवति, वृष्टिः देशस्य जीवननारी अस्ति.
उत्तमम्. अस्मिन् निबन्धे सर्वाणि पदानि अवगतानि वा महोदय? भवान् अवगतवान् वा पदानि, पदानाम् अर्थः कः? Did you understand all the words in this essay?
Yes, kinchit kinchit. there are some words I could not get it. So, Varsha Kale, Gagane.
अधुना पश्यामः भवान् पठितवान् अधुना वयं किं कुर्मः इत्युक्ते केवलं पङ्क्तिशः विल् गो लैन् बै लैन् पङ्क्तिशः पश्यामः अधुना प्रथमं वाक्यमस्ति वर्षाकाले गगने मेघाः भवन्ति इत्युक्ते किं
ड्यूरिङ्ग् रेनी टैम्स् क्लौड्स् गेट्स् इन् टु द स्काय्
तदेव वाक्यम् एकवचने वदतु
एकवचने मेघः वर्षाकाले गगने मेघः भवति
उत्तमम् अत्र आकाश गगनम् इत्यस्मिन् गगनं वयं जानीमः गगनम् इत्युक्ते आकाशः अत्र भवान् जानाति एव मेघः इत्युक्ते क्लौड् परन्तु अहम् अन्यं पदद्वयं ददामि अन्यं पदद्वयम् इत्युक्ते आकाशः इत्यस्य कृते गगनं तस्य कृते आकाशः मेघः मेघः अन्यनाम अस्ति जलधरः एतत् पदद्वयं तत्र स्थापयित्वा वाक्यं रचयतु आकाशः जलधरः आकाशः इत्युक्ते वदतु
वर्षकाले आकाशः आकाशे जलधरः भवन्ति
जलधराः भवन्ति
जलधरः भवन्ति
उत्तमम् इत्युक्ते अत्र मेघः इत्यस्य अन्यनाम अस्ति जलधरः अथवा वारिधरः अथवा वारिदः इत्युक्ते वारिधरति वारिधरः अथवा जलं धरति जलधरः अत्र तथा एव द्वितीयं वाक्यं वदतु
ते गर्जन्ति
के गर्जन्ति
ते मेघाः गर्जन्ति
मेघाः गर्जन्ति परन्तु वयं जानीमः एव वने सिंहः गर्जति परन्तु आकाशे मेघाः गर्जन्ति इत्युक्ते किम्
आकाशे मेघाः गर्जन्
परन्तु वयं जानीमः अरण्ये सिंहः गर्जति परन्तु आकाशे मेघाः गर्जन्ति इत्युक्ते किम्
बहुवचनं गर्जन्ति
इत्युक्ते तस्य अर्थः कः आकाशे मेघाः गर्जन्ति इत्युक्ते
आकाशे मेघः
इत्युक्ते वर्षायाः पूर्वम् अथवा वृष्टेः पूर्वम् आकाशात् यः शब्दः श्रूयते अस्माभिः स एव गर्जनं वृष्टेः पूर्वम् आकाशात् वयं शब्दं शृणुमः स शब्दम् एव गर्जनम् बिफोर् इट् रेन्स् वि यूशुवलि हियर् ए सौण्ड् तदेव गर्जनं अत्र मेघाः गर्जन्ति मेघगर्जनानन्तरं किम् उत्तमम् अनन्तरं मेघगर्जनानन्तरं किं भवति आकाशे महोदय अत्र महोदय ते गर्जन्ति इति वाक्यमस्ति एकवचने वदतु
सः गर्जति
सः गर्जति उत्तमम् अत्र तृतीयं वाक्यमस्ति आकाशे सौदामिन्यः स्फुरन्ति इति वाक्यमस्ति इत्युक्ते मेघगर्जनानन्तरम् आकाशे सौदामिन्यः स्फुरन्ति अत्र पश्यतु अत्र सौदामिन्यः इत्युक्ते कः वदति उत्तमम् सौदामिन्यः अत्र बहुवचनं दत्तमस्ति एकवचनं किं
कः
वदति
सोदमिन्यः स्फुरति
सौदामिन्यः बहुवचनरूपं दत्तमस्ति, परन्तु एकवचनं किं भवति? लक्ष्मी भगिनी भवती वदतु.
सौदामिनी.
उत्तमं. सौदामिनी यथा नदी शब्दवत्. एकवचनरूपं सौदामिनी. एकवचनरूपं योजयित्वा वाक्यं रचयतु महोदय.
सौदामिनी स्फुरति.
उत्तमं. सौदामिनी स्फुरति. सौदामिनी तस्य कृते अन्यानि नामानि अपि सन्ति, यथा तडित्. तडित् इत्युक्ते सौदामिनी. अन्यनाम अस्ति विद्युल्लता. विद्युल्लता. विद्युल्लता इत्युक्ते सौदामिनी इत्युक्ते आकाशे वृष्टेः पूर्वं मेघगर्जनानन्तरम् आकाशे सौदामिनीं द्रष्टुं शक्नुमः. वी केन् सी द लैटनिङ्ग्. आकाशे विद्युल्लतां द्रष्टुं शक्नुमः. अत्र सौदामिनी इत्यस्मिन् स्थले विद्युल्लता इति पदं योजयित्वा वदतु, वाक्यं वदतु.
विद्युल्लताः स्फुरन्ति.
उत्तमं. विद्युल्लताः स्फुरन्ति. अत्र स्फुरति अथवा स्फुरन्ति बहुवचनरूपं. स्फुरति इत्युक्ते किं जानाति वा? स्फुरति इत्युक्ते केवलं किञ्चित् कालं, केवलं त्रुटिकालम् एव वयं द्रष्टुं शक्नुमः. स्प्लिट् आफ् ए सेकेण्ड्. वी केन् सी द लैट्निङ्ग् इन् ए स्प्लिट् आफ् ए सेकेण्ड्, नाट् फर् वेरि लाङ्ग् टैम्. तदेव स्फुरति. आकाशे विद्युल्लता स्फुरति इत्युक्ते विद्युल्लता, विद्युल्लतां केवलं किञ्चित् कालमेव द्रष्टुं शक्नुमः. तदर्थमेव अत्र स्फुरति इति पदं योजितमस्ति. सौदामिन्यः स्फुरन्ति. उत्तमम्. अग्रिमं वाक्यं पठतु महोदय.
सर्वत्र जलं भवति.
तत् वाक्यम् एकवचने एव अस्ति. सर्वत्र जलं भवति. अवगतवान् वा? वाक्यं सुलभः एव. क्लिष्टकरं पदं कोऽपि नास्ति तत्र. सर्वत्र जलं भवति. अग्रिमं वाक्यं पठतु.
ग्रामे मार्गः पक्मयः भवन्ति.
पङ्कमयाः भवन्ति. उत्तमं. ग्रामे मार्गाः पङ्कमयाः भवन्ति. पङ्कमयाः भवन्ति इत्युक्ते किं जानाति वा? कः जानाति, कः वदति पङ्कमयाः इत्युक्ते? अत्र अत्र पङ्कम् इत्युक्ते आर्द्रा मृत्तिका. इट् इस् लैक् वेट् सायिल् अथवा क्ले. पङ्कम् इत्युक्ते आर्द्रा वेट् सायिल् महोदय, अथवा क्ले. क्ले इति वदामः. वृष्टेः अनन्तरं किं भवति? ग्रामे मार्गाः पङ्कमयाः भवन्ति. अत्र मार्गाः, मार्गाः इत्युक्ते किं? वीथ्यः. वीथ्यः. अत्र अहं वीधि इति पदं ददामि. वीधि इति पदं योजयित्वा वदतु.
वीधि
ग्रामे.
ग्रामे वीधिः पक्मया भवति.
उत्तमं. ग्रामे. तदेव वाक्यं पुनः एकवारं वदतु.
ग्रामे वीधिः पक्मया भवन्ति.
यदि बहुवचने वक्तुमिच्छति चेत् ग्रामे वीध्यः पङ्कमयाः भवन्ति.
भवन्ति.
एकवचने वदतु.
ग्रामे वीधि पङ्कमया भवति.
उत्तमं. वयं जानीमः एव अन्यानि पदानि, ज्ञानमयम्, आनन्दमयं, पङ्कमयं. पङ्कमयः, अत्र पङ्कमयः इति पदं दत्तमस्ति, परन्तु वयं सर्वे जानीमः एव, वयं श्रुतवन्तः एव ज्ञानमयम् आनन्दमयम् इति पदानि वयं जानीमः. परन्तु अत्र वृष्टेः अनन्तरं ग्रामे तत्र मार्गाः अथवा वीथ्यः पङ्कमयाः भवन्ति, इत्युक्ते तत्र सर्वत्र आर्द्रामृत्तिका एव दृश्यते.
वर्षाकाले मण्डूकः रटन्ति,
वर्षाकाले
मण्डूकः रटन्ति,
मण्डूकाः रटन्ति. अत्र
मण्डूकाः
एकवचने वदतु.
वर्षाकाले, वर्षाकाले मण्डूकः रटति,
रटति वर्षाकाले मण्डूकः रटति,
रटति.
अहम् अन्यं पदं ददामि, भेकः. भेकः इत्युक्ते मण्डूकः. भेकः इति पदं योजयित्वा वदतु.
भेकः
वर्षाकाले मण्डूकः,
वर्षाकाले भेकः रटन्ति,
रटन्ति
रटति.
उत्तमं. रटति इत्युक्ते किम्?
एकवचन रटति.
एकवचनं, परन्तु तस्य अर्थः कः? रटति अथवा रटनं करोति अथवा रटन्ति, जानाति वा?
रटनं करोति, रटन्ति.
इत्युक्ते किम् आङ्ग्लभाषायां वदतु.
During rainy season, frogs make sound, right?
तदेव रटनम् इत्युक्ते मण्डूकाः उच्चैः शब्दान् कुर्वन्ति, स एव रटनम् अथवा मण्डूकाः रटन्ति, उच्चैः उच्चैः शब्दान् कुर्वन्ति मण्डूकाः. अनन्तरम् अग्रिमं वाक्यं पठतु.
मयूराः नृत्यन्ति, डान्स्. मयूरः, मयूरः नृत्यति.
उत्तमं. मयूरः इत्यस्मिन् स्थाने, तस्मिन् स्थले अहम् अन्यं पदं ददामि, शिखी.
शिखी
वदतु. शिखी इत्युक्ते मयूरः.
शिखीः नृत्यन्ति.
अत्र पश्यतु महोदय, अत्र सर्वे शृण्वन्तु, अत्र मयूरः इति पदम् अकारान्तपुंलिङ्गपदम्. परन्तु यत् पदम् अहम् उक्तवती, शिखी इति पदं नकारान्तपदम् अथवा नकारान्तपदम्, अतः शिखी, शिखिनौ, शिखिनः, बहुवचनरूपं शिखिनः इति भवति. किमर्थं तथा इत्युक्ते, मयूरः यथा अहं पूर्वमेव उक्तवती, मयूरः इति पदं पुंलिङ्गम्, अकारान्त पुंलिङ्गं, परन्तु शिखि इति पदं नकारान्त पुंलिङ्गपदं, बहुवचनरूपं, बहुवचनरूपं शिखिनः इति भवति. अधुना शिखिनः इति पदं योजयित्वा वदतु.
शिखिनः नृत्यन्ति.
उत्तमम्. अन्यं पदमस्ति बर्हि. बर्हि इत्युक्ते मयूरः. बर्हि इत्युक्ते मयूरः, परन्तु बर्हि इति पदस्य बहुवचनरूपं कोऽपि जानाति वा अत्र? बर्हि महोदय, बर्हि इत्यपि नकारान्तपदं, बर्हि इति पुंलिङ्गं रूपं, परन्तु बहुवचनरूपं बर्हिणः.
बर्हिणः नृत्यन्ति.
वदतु, योजयित्वा वदतु. बर्हिणः,
बर्णिहः नृत्यन्ति.
बर्हिणः नृत्यन्ति. उत्तमम्. अग्रिमं वाक्यं पठतु.
वृक्षा पल्लवितः भवन्ति.
इत्युक्ते कः वदति पल्लविताः भवन्ति इत्युक्ते किम्?
पल्लविताः भवन्ति
कः वदति अत्र?
वृक्षः.
गीताञ्जलि भगिनी
पल्लविता
वदति.
Pallavita, Anandamai, Anandamai.
Full of fruits.
Kaha vadati vrikshah, atra vakyam dattamasti, vrikshah pallavitaha bhavanti. Pallavitaha ityukte kim?
Vikasitaha.
Vadatu mahodaya.
Vrikshah. Vikasit pallavitaha mat
ichukte
kat ichukte vikasit
atra aham vadami bhavantah anglabhashayam vadantu pallavitah ichukte vrikshah pallavitah ichukte nutanataya laghu laghu patrani vrikshayam drashtum shaknumah. यथा वसन्तकाले वसन्तकालम् आयाति तथा वयं तदानीं वयं लघु लघु पत्राणि
न्यूस् प्रौट्
द्रष्टुं शक्नुमः. न्यूस् इत्युक्ते तथा एव अत्रापि वर्षायाः अनन्तरं वृक्षाः पल्लविताः भवन्ति. अधुना वदतु महोदय, पल्लविताः इत्युक्ते किं? राजीव् महोदय,
पल्लविताः
अधुना अवगतवान्, पल्लविताः इत्युक्ते किम् अधुना अवगतवान् वा? Did you understand?
Yes, yes, I got it. In spring when you get those little leaves on the trees.
उत्तमं, तदेव इत्युक्ते वृक्षाः पल्लविताः भवन्ति. अग्रिमं वाक्यं पठतु. अत्र एकवचने भवान् जानाति एव, वदतु एकवचनवाक्यं वदतु.
पल्लवितः भवति.
अग्रिमं वाक्यं.
बीजानि अङ्कुरितानि भवन्ति. Seeds started, what do you call that?
Ankuritani bhavanti.
Ankuritani bhavanti, yes.
Ichukte?
Ankuritani is...
sprouts.
Yes, sprouts. Seeds started sprouting,
Started sprouting. Parantu atra... पदमस्ति अङ्कुरितम्. अङ्कुरितम् इति पदस्य बहुवचनरूपं किम्?
अङ्कुरितानि.
उत्तमं, परन्तु अस्मिन् पदे तत्र रेफः अस्ति, इत्युक्ते रकारः अस्ति, परन्तु अत्र अन्तिमं वर्णम् इत्युक्ते द लास्ट् लेटर् तत्र मूर्धन्यकारः भवति वा न भवति वा अत्र? कः वदति? सुभारो महोदय, भवान् जानाति वा अत्र अङ्कुरितम् इति पदमस्ति
बहुवचनरूपूर्धन्यनकारं न भवति.
किमर्थं किमर्थम्
अङ्कुरितम् अङ्कुरितानि?
यथा भवान् उक्तवान् तत् समीचीनमेव. वदतु, जानाति वा कारणं? जानाति वा?
न भगिनि.
अत्र अत्र णत्वं न भवति. किमर्थं चेत् अत्र अस्मिन् पदे निमित्तमस्ति. निमित्तं किं? रेफः. परन्तु अत्र बाधकवर्णाः सन्ति. यदि बाधकवर्णः अस्ति चेत् तदा णत्वं न भवति. अत्र बाधकवर्णः कः? तकारः बाधकवर्णः. यदि कवर्गीय व्यञ्जनानि वा अथवा पवर्गीयव्यञ्जनानि वा सन्ति चेत् तदा णत्वं भवति. विपरीत यदि तवर्गीयव्यञ्जनानि अथवा तवर्गीयव्यञ्जनानि अथवा च्यवर्गीयव्यञ्जनानि सन्ति चेत् तदा णत्वं न कदापि भवति. इत्युक्ते तत्र निमित्तमस्ति, परन्तु बाधकवर्णाः सन्ति चेत् तदा णत्वं न कदापि भवति. अतः एव अत्र अङ्कुरितानि इति एव भवति. अवगतवान् वा महोदय? अत्र राजीव् महोदय, भवान् वदतु एकवचने, वदतु अस्मिन् एतत् वाक्यं.
बीजानि अङ्कुरितं भवति.
वदतु.
Bijani. What is the equation for Bijani?
Bijani iti padam. Tasya vachanam kim?
It's bahuvachan.
Bijam.
Ekvachanam kim?
Bijam. Bijam. Thank you. Bijam. Ankuritam. Bhavati.
उत्तमं बीजम् अङ्कुरितं भवति इत्युक्ते वयं सर्वे जानीमः बीजे अङ्कुरमस्ति बीजे वृक्षमपि अस्ति परन्तु वयं न द्रष्टुं शक्नुमः बीजे केवलं बीजे अङ्कुरमस्ति इत्युक्ते वृक्षमेव अस्ति बीजे अनन्तरम् अत्र अन्यं वाक्यम् अनन्तरं पठतु महोदय
क्षेत्राणि जलपूर्णानि सस्य स्मर्धानि च भवन्ति इट मीन्स
एकवचने वदतु
क्षेत्राणि क्षेत्रं जलपूर्णं सस्य स्मर्धं च भवति
उत्तमम् अवगतवान् वा अस्मै वाक्यसार्थः कः इति जानाति वा भवान् क्षेत्रं जलपूर्णं सस्य समृद्धं समृद्धं च भवति इत्युक्ते किम्
एरिया गोट् सफिशियण्ट् टु वाटर् राइट्
क्षेत्रम् इत्युक्ते अत्र क्षेत्रमित्युक्ते कृषि कः वदति क्षेत्रमित्युक्ते किम्
एग्रिकल्चर्
लेण्ड्
उत्तमं क्षेत्रमित्युक्ते कृषकक्षेत्रम् अथवा सस्यक्षेत्रं क्षेत्राणि जलपूर्णानि भवन्ति इत्युक्ते क्षेत्रेषु केवलं जलमेव दृश्यते अत्र पश्यतु महोदय क्षेत्रम् इति पदमस्ति बहुवचनरूपं किं
क्षेत्राणि क्षेत्राणि
तत्र मूर्धन्यणकारः अस्ति वा नास्ति वा तत्र णत्वम् अस्ति वा नास्ति वा सुबारो महोदय भवान् वदति वा तत्र णत्वं भवति वा न वा
आम् मूर्धन्यनकारम् अस्ति
अस्ति किमर्थमस्ति
रेफं क्षेत्र रेफम् अस्ति
रेफः अस्ति अनन्तरं बाधकवर्णाः तत्र रेफः अस्ति निमित्तमस्ति अपि च बाधकवर्णानि न सन्ति
अस्ति
तथा एव अत्र अत्र वदतु महोदय जलपूर्णं इति पदमस्ति बहुवचनरूपं किं
जलपूर्णानि
उत्तमं तत्र मूर्धन्यणकारः अस्ति वा नास्ति वा
दट्
मीन्स् एट् द एण्ड् आफ् दट् वर्ड् यु केन् हियर् द सौण्ड् आफ् अण अर्ण because it is a significant पूर्णानि तत्र केवलं दन्त्यनकारः दन्त्यनकारः एव अस्ति मूर्धन्यणकारः न श्रूयते यु डोण्ट् हियर् द सौण्ड् आफ् अण देर् जलपूर्णानि इति भवति तत्र किमर्थम् इत्युक्ते तत्र निमित्तमस्ति परन्तु बाधकवर्णः अपि अस्ति बाधकवर्णः कः तस्मिन् पदे अत्र ण इति अक्षरमस्ति तत्र णकारः तवर्गे अस्ति तवर्गे व्यञ्जनमस्ति चेत् तत्र निमित्तमस्ति चेदपि णत्वं न भवति अतः एव केवलं तत्पदं जलपूर्णानि इति एव भवति उत्तमम् अनन्तरम् अग्रिमं वाक्यं पठतु महोदय
कृषकः कृषिं कुर्वन्ति फार्मर्स् कल्टिवेट् द लेण्ड्
उत्तमम् इत्युक्ते अत्र कृषकः इति पदमस्ति अहम् अन्यं पदं ददामि कृषीवलः योजयित्वा वदतु
किसानः कृषकः
कृषीवलः इति पदं योजयित्वा तदेव वाक्यं रचयतु
कृषीवलः कृषिं कुर्वन्ति
कृषिं कुर्वन्ति इत्युक्ते कृषीवलः कृषीवलः कृषिकार्यं कुर्वन् करोति
कार्यं करोति कृषि
एकवचनमस्तु तदेव वाक्यं
कृषीवलः कृषिं कुर्वति
समीकृत्य वदतु कृषीवलः एकवचने अस्ति एकवचने अस्ति वाक्यम् एकवचने रचयतु
कृषीवलः कृषिं कुर्वति
कुर्वन्ति पदस्य एकवचनरूपं कः कः वदति कुर्वन्ति पदस्य एकवचनरूपं
करोति
करोति करोति करोति कुर्वन्ति
करोति पदस्य रूपाणि त्रीणि रूपाणि कः वदति अत्र लक्ष्मी भगिनी भवती वदति वा करोति पदस्य रूपत्रयम् एकवचने द्विवचने अपि च बहुवचने वदतु
करोति पुरतः कुर्वन्ति
उत्तमं करोति पुरतः कुर्वन्ति अनन्तरं वदतु महोदय अत्र अग्रिमं वाक्यं पठतु कृषिं कुर्वन्ति तत्र
ओ सोरि ऐ वाज़ ऑन म्यूट ते क्षेत्रेषु बीजानि वपन्ति
इत्युक्ते
मीन्स् इन् दट् एरिया इन् दोस् फील्ड्स् बीजानि वपन्ति मीन्स् सीड्स् केम् आउट्
बीजानि
सीड्स् कम् आउट्
बीजानि वपन्ति वपन्ति इत्युक्ते कृषिक्षेत्रेषु बीजानि स्थापयन्ति इत्युक्ते भूमौ बीजानि स्थापयन्ति
planted the seeds right plant the
seeds ke ke sthapayanti ke vapanti
bijani vapanti
bijani vapanti parantu ke kurvanti ke ke vapanti kaha karoti
tat karyam
vadat
krishikaha bijani vapanti
uttamam krishikaha बीजानि वपन्ति कुत्र वपन्ति
बीजानि वपन्ति
क्षेत्रे
बीजानि वपन्ति
क्षेत्रेषु बीजानि वपन्ति
क्षेत्रेषु बीजानि वपन्ति उत्तमम् अत्र वपति एकं नूतनं पदमस्ति वपति इत्युक्ते किम् आङ्ग्लभाषायां वदतु
वपति प्लाण्ट् प्लाण्टिङ्ग्
अत्र गीताञ्जलि भगिनी भवती वदति वा वपति इत्युक्ते किं उत्तमं पुनः एकवारम् उच्चैः वदतु वपति इत्युक्ते सोयिङ्ग् सीड्स् कृषिक्षेत्रे उत्तमं कृषिक्षेत्रे सस्यारोपणं कुर्वन्ति के कुर्वन्ति कृषकाः कुर्वन्ति इत्युक्ते अत्र सस्यम् इति पदमस्ति सस्यम् इत्युक्ते लघुवृक्षं लघुवृक्षम् अनन्तरं करोतु महोदय सस्यानि वर्धयन्ति एकवचने वदतु
लक्ष्मी भगिनि
वदतु महोदय
क्षेत्रेषु ते क्षेत्रेषु बीजानि वपन्ति क्षेत्रेषु एकवचनं कः
वदतु महोदय भवान् एव प्रयत्नं करोतु ते क्षेत्रेषु बीजानि वपन्ति इति वाक्यमस्ति एकवचने रचयितुं प्रयत्नं करोतु एकमेकं पदं स्वीकृत्य
अहं लिखामि सः क्षेत्रेस्मिन् बीजं वपति
उत्तमम् अत्र क्षेत्रेषु सर्वं सम्यक् एव परन्तु अत्र क्षेत्रेषु इति पदमस्ति क्षेत्रेषु इति पदस्य एकवचनरूपं किं भवति कः वदति लक्ष्मी भगिनी वदति वा
ऐरोट् क्षेत्रम्
उत्तमम् उत्तमं प्रथमाविभक्ति एकवचनं क्षेत्रं सप्तमी विभक्ति एकवचनं किं भवति
क्षेत्रे
उत्तमम् महोदय क्षेत्रे पदं योजयित्वा वदतु महोदय.
सः क्षेत्रे बीजं वपति.
उत्तमम्. अधुना भवान् एव वदतु. धन्यवादः राजीवमहोदय. अधुना वरं महोदय करोति अन्यानि वाक्यानि. अन्य अग्रिमं वाक्यं पठतु महोदय अत्र.
सस्यानि वर्धयन्ति.
एकवचने वदतु.
सस्यं वर्धयति.
सस्यं वर्धयति. अत्र पश्यतु महोदय, अत्र वर्धयति इति पदम् अस्ति. परन्तु सस्यं कः वर्धयति, केन वर्धयति, हू विल् डू दट् वर्क्. सस्यानि वर्धयन्ति, केन सस्यानि वर्धयन्ति, केन? कृषकेण.
कृषके
इत्युक्ते अत्र क्रियापदद्वयं वयं अत्र यदि भवन्तः ज्ञातुमिच्छन्ति चेत् अत्र सस्यं वर्धते इति वाक्यमस्ति. द प्लाण्ट् विल् ग्रो, बट् बै हूम्? बै द फार्मर्स्. अतः एव अत्र निजन्तक्रियापदम् इति वदामः. निजन्तक्रियापदम् इत्युक्ते वर्धयति, पाठयति, खादयति, तथा पदानि सन्ति चेत् तत्र निजन्तरूपम् इति वदामः. इत्युक्ते तत् कार्यं केन भवति, अत्र केन भवति, अत्र कृषकेण सस्यानि वर्धयन्ति. द प्लाण्ट्स् विल् नाट् ग्रो आल् बै देम्सेल्स्, इट् हेस् टु बि डन् बै सम्बडि, रैट्? अतः एव अत्र क्रियापदं दत्तमस्ति, वर्धयति इति पदं दत्तमस्ति. वर्धयति इति पदं निजन्तरूपम् इति वदामः. अत्र कृषकेण सस्यानि वर्धयन्ति. अग्रिमं वाक्यं पठतु.
ते प्रसन्नः भवन्ति.
एकवचने.
सः ते प्रसन्नाः भवन्ति. सः प्रसन्नः भवति.
सः कः अत्र, कः प्रसन्नः भवति?
कृषकः.
किमर्थं
कृषकाः
किमर्थं
कृषकाः प्रसन्नाः भवन्ति?
किमर्थं प्रसन्नाः इत्युक्ते अत्र सन्तुष्टाः भवन्ति.
सन्तुष्टाः
किमर्थं?
The farmers are happy.
Why? किमर्थं?
सस्यानि वर्धयन्ति.
पश्यन्ति.
उत्तमं. पश्यन्ति, उत्तमं. सस्यवर्धनेन ते प्रसन्नाः भवन्ति. उत्तमं. वर्षाकाले अग्रिमं वाक्यं पठतु.
वर्षाकाले जलाशयाः पूर्णाः भवन्ति.
एकवचनं वदतु.
वर्षाकाले जलाशयः पूर्णाः भवति.
अत्र किञ्चित् समीकरोतु. जिगीतञ्जलि भगिनी भवती वदतु.
वर्षाकाले जलाशय पूर्णं भवति.
जलाशयं पूर्णं भवति. परन्तु अत्र जलाशयः इति पदं पुंलिङ्गपदम्, अतः पुंलिङ्गरूपमेव अत्र लेखनीयम्. अत्र जलाशयं न, अत्र जलाशयः पुंलिङ्गरूपं. वदतु महोदय अत्र वर्षाकाले.
वर्षाकाले जलाशयः पूर्णं भवति.
पूर्णः भवति. अत्र किमर्थम्? अत्र जलाशयाः इति पदस्य विशेषणम्, अड्जेक्टिव् विशेषणमेव पूर्णाः. तत्र जलाशयाः इति पदं पुंलिङ्गे अस्ति, अपि च बहुवचने अस्ति, अतः तस्य विशेषणम् अपि पुंलिङ्गे अपि च बहुवचने स्यात्. it should be in the same vibhakti. The adjective must be in the same vibhakti, lingam and vachanam. Just like the visheshyam. So, right. Always the adjective will describe the noun. Atahaya vatra jalashayaha purnaha bhavanti. Ek vachane kim bhavati?
Jalashayaha purnam bhavati.
Purnaha bhavati.
Purnaha bhavati.
Uttamam. Agrimam vakyam patatu. Atra aham anyam padam dadami. Jalashayaha ityasya pariyaya vachaka padam asti. Tadagaha adhava tatakaha.
वर्षाकाले तटाकाः पूर्णाः भवन्ति.
तटाकाः पूर्णाः भवन्ति. उत्तमं. पूर्णाः भवन्ति इत्युक्ते जलेन पूरिताः भवन्ति अथवा जलेन निर्भराः भवन्ति इति अपि वक्तुं शक्नुमः. अग्रिमं वाक्यं वदतु.
कूपाः अपि पूर्णाः भवन्ति.
कूपः इत्युक्ते
वेल्.
साधारणतया कूपात् वयं जलम् आनयामः. अत्र एकवचने वदतु तदेव वाक्यम्.
एकवचनं कूपः अपि पूर्णः भवति.
केन पूर्णः भवति?
कूपः.
कूपः पूर्णः भवति परन्तु केन?
जलम्.
उत्तमं. तदेव वदतु महोदय. भगिनी उक्तवती परन्तु भवान् पूरयतु वाक्यं. पूरयतु. केन पूर्णः भवति?
जलं.
जलेन.
जलेन पूर्णः भवति.
उत्तमम्. अग्रिमं वाक्यं.
नद्यः जलेन परिपूर्णाः भवन्ति.
एकवचने वदतु.
नदी जलेन परिपूर्णः भवति.
अनन्तरं
वर्षाकाले जनाः छत्रं धृत्वा गच्छन्ति.
कुत्र गच्छन्ति? बहिः गच्छन्ति.
वर्षाकाले
किं वदतु.
एकवचनं वर्षाकाले जनः छत्रं धृत्वा गच्छति.
उत्तमं. किं धृत्वा गच्छति?
छत्रं धृत्वा गच्छति.
छत्रम् इत्यस्य अन्यं पदमस्ति आतपत्रम्. आतपत्रम् इत्युक्ते छत्रं. किमर्थं तथा नाम अस्ति इत्युक्ते अत्र आतपः इत्युक्ते उष्णतापः. वयम् आतपे अपि छत्रं धृत्वा बहिः गच्छामः. ईवन् इन् द हाट् समर् आल्सो वि टेक् द अम्ब्रेला. रैट्? अतः एव आतपः इत्युक्ते उष्णतापः. आतपे अपि वयं छत्रं धृत्वा बहिः गच्छामः. अतः तस्य नाम अस्ति आतपत्रम्. अधुना आतपत्रम् इति पदं योजयित्वा तदेव वाक्यं वदतु महोदय.
वर्षाकाले जनाः आतपत्रं धृत्वा गच्छन्ति.
अनन्तरम् अग्रिमं वाक्यं.
बालकाः नौकाः निर्मया
निर्माय
कुल्यासु प्लावयन्ति.
अत्र जानाति वा वाक्यस्य अर्थः कः इति? एकमेकं पदं स्वीकृत्य वदतु महोदय. बालकाः नौकाः
नौकाः निर्माय बिल्डिङ्ग् बोट्स् कुल्यासु
केन निर्माति
नौकाः निर्माति
नौका केन निर्माति
बालकाः निर्माति
बालकाः अपि च अहं वदामि बालकाः कागदेन निर्माति अत्र बालकाः नौकाः निर्माय कुल्यासु प्लावयन्ति कुल्यासु इति पदमस्ति नूतनं पदं कुल्यासु इति पदस्य लिङ्गवचनविभक्तिः का वदतु महोदय ऊहं करोतु कः वदति तत्र लक्ष्मी भगिनी भवती प्रयत्नं करोति वा कुल्यासु इति पदस्य राजीव् महोदय वदति वा
सप्तमीविभक्ति कुल्यासु
उत्तमं सप्तमीविभक्ति वचनं किं
बहुवचनं
बहुवचनं लिङ्गं किं
पुल्लिङ्गं
बालकः
स्त्रीलिङ्गं महोदय स्त्रीलिङ्गम् अत्र परन्तु अत्र अत्र एकवचनरूपं प्रथमाविभक्ति एकवचनरूपम् अस्ति कुल्या इत्युक्ते जलाशयः इत्युक्ते बृहान् जलाशयः परन्तु कुल्या इत्युक्ते लघ्वी परिमाणेन लघुः परिमाणेन अत्र कुल्यासु इति पदं सप्तमी विभक्ति बहुवचनं स्त्रीलिङ्गे अस्ति परन्तु अत्र प्लावयन्ति इति पदमस्ति परन्तु प्लावयन्ति इति एकं नूतनं पदं परन्तु वयं साधारणतया तरन्ति अथवा तारयन्ति इति पदं योजयामः इत्युक्ते नौकाः जले तरन्ति नौकाः कागदनौकाः जले तरन्ति परन्तु केन तारयन्ति बालकाः तारयन्ति उत्तमं बालकाः तारयन्ति अथवा बालकाः प्लावयन्ति काः प्लावयन्ति नौकाः प्लावयन्ति कुत्र प्लावयन्ति कुल्यासु प्लावयन्ति उत्तमम् एकवचने वदतु एतदेव वाक्यं
बालकः नौकाः नौकः निर्मया
तदपि एकवचने वदतु नौकाः इति पदस्य रूपं किं वदतु महोदय
नौका नौका
स्त्रीलिङ्गं परन्तु विभक्तिः का
तन्माविभक्ति
न महोदय अत्र द्वितीया विभक्ति किमर्थं चेत् नौका इति पदम् आकारान्तपदम् आकारान्तपदानां कृते प्रथमाविभक्ति बहुवचनं स्त्रीलिङ्गरूपाणां द्वितीया बहुवचनमपि समानं यथा लता लते लताः लतां लते लताः इत्युक्ते प्रथमाविभक्तिरूपं द्वितीयविभक्तिरूपं समानम् अतः अत्र नौकाः इति पदं दत्तमस्ति परन्तु अत्र द्वितीयविभक्ति बहुवचनम् अधुना वदतु एकवचनरूपम्
एकवचनरूपं नौका नौका
परन्तु अत्र निर्माय इति पदमस्ति अत्र नौकाः इति पदं कर्मपदम् अतः किं वदामः बालकः नौकां निर्माय कुल्यां प्लावयति एकवारं वदतु तदेव
बालकः नौकां निर्माय कुल्यां प्लावयति.
उत्तमम्. अस्मिन् वाक्ये सर्वाणि पदानि एकवचने एव सन्ति. अग्रिमं वाक्यं वदतु.
वृष्टिकारणतः देशस्य धान्यसमृद्धिः अधिका भवति.
इत्युक्ते किम्?
बिकास् आफ् द रेन्.
देशस्य
इन् द कण्ट्रि दे हाव् धान्यसमृद्धि.
सम्यक् सम्यक् वृद्धिः भवति. उत्तमम्. अनन्तरम् अग्रिमं वाक्यं वदतु.
वृष्टिः देशस्य जीवननाडिः जीवननाडी अस्ति.
इत्युक्ते किं?
रेन्स् आर् द लैफ् लैन् फर् द कण्ट्रि.
उत्तमम्. इत्युक्ते अत्र वृष्टिः देशस्य जीवननाडी अस्ति. इत्युक्ते अत्र जीवननाडी इति पदम् अत्र इडियम् अस्ति. इडियम् इत्युक्ते अत्र वृष्टेः कारणतः बहूनि कार्याणि भवन्ति. इत्युक्ते वृष्टेः महान् प्रभावः अस्ति. वृष्टेः कारणेन एव वयं सर्वे जीवितुं शक्नुमः. सर्वे जन्तवः अपि च पशवः पक्षिणः अथवा सस्यानि वा सर्वे वर्धन्ते. वृष्टेः विना एतानि कार्याणि न सम्भवन्ति. इत्युक्ते अस्मिन् निबन्धे वर्षाकाले किं किं द्रष्टुं शक्नुमः अस्माभिः किं किं द्रष्टुं शक्यते इति वयं जानीमः. अस्मिन् करपत्रे वर्षाकाले किं किं भवति, किं किं वयं द्रष्टुं शक्नुमः इति सम्यक् रीत्या लिखितमस्ति. उत्तमम्. इदानीं पर्यन्तं वयम् एकवचने एतानि वाक्यानि सर्वाणि अपि रचितवन्तः. अनेन अभ्यासेन कः लाभः अहं पृच्छामि. वाट् इस् द यूस् आफ् डूयिङ्ग् दिस् कैण्ड् आफ् एक्ससैज़? कः वदति कानिचन वाक्यानि? अत्र वेददेशिकन् महोदय अस्ति. महोदय, इदानीं पर्यन्तं भवान् किमपि न उक्तवान्, भवान् वक्तुमिच्छति वा अधुना? अत्र वेददेशिकन् नाम्ना एकः अस्ति. अस्तु, सुचित्रा भगिनी भवती वदति वा अत्र? इदानीं पर्यन्तं वयं किञ्चित् अभ्यासं कृतवन्तः. अनेन अभ्यासेन कः लाभः? By doing this kind of exercise, what are the advantages?
Vibhaktis, we can go through the different vibhaktis, like, you know, past, bhutakala, future tense, present tense, and reading the, like, you know, okay, linga rupam.
इत्युक्ते अत्र एतत् लेख्यनिबन्धं द्विवारं पठनेन, द्विवारम् इत्युक्ते टु टैम्स्, द्विवारं पठनेन एतानि सर्वाणि पदानि मनसि तिष्ठन्ति. अपि च किञ्चित् चिन्तनं भवति, कक्षायामपि चिन्तनं भवति. परं तथा एव अत्र पदस्य निर्माणं कथम् अभवत्, एकमेकं पदं स्वीकृत्य पदस्य निर्माणं कथं भवति इति वयं चिन्तयामश्चेत् मातृभाषाज्ञानम् अपि वर्धते. इफ् यु आर् गोयिङ्ग् टु टेक् ईच् वर्ड् अण्ड् इफ् यु आर् गोयिङ्ग् टु थिङ्क् अबौट् ईच् वर्ड् अण्ड् इट् विल् हेल्प् इम्प्रूव् युवर् मदर् टङ्ग् आल्सो. अपि च नूतनपदानाम् अर्थम् अवगमनार्थं वयं किञ्चित् किञ्चित् गूगल् कृत्वा ज्ञातुं शक्नुमः. इफ् वी डोण्ट् नो सम् आफ् द वर्ड्स् समटैम्स् नो वि डू or do the Google search and we'll try to identify the name of figure out the meaning of those words. ekekasya padasya arthah kah iti kinchit chintayamah api cha kinchit uham kurmah. ekekasya padasya vibhakti hi ka lingam kim vachanam kim iti vayam चिन्तयामः. अनन्तरं लेख्यनिबन्धं पठनानन्तरं वयं सर्वे पूर्णरीत्या सम्पूर्णतया वयम् अर्थं ज्ञातवन्तः चेत् वयमपि एकं नूतनं एस्से रचयितुं शक्नुमः. इफ् वी आलरेडि अण्डर्स्टुड् दिस् एस्से, वी केन् ट्रै टु रैट् अदर् एस्सेस्. सत्यं किल? Am I right?
Am bhagini.
Did any of you didn't get any of these words? Please raise your voice. Esse kasyapi prashnaha santi chet puchyantu. Yadi bhavantah chitrakarah santi chet ekam sundaram chitram lekhitum shaknuvanti. If any of you know how to paint a picture, by reading this essay you can paint a picture. तथा एव अनन्तरम् अत्र वर्षाकाल वर्षागमनम् अथवा वृष्टेः आगमनं बहु आवश्यकम् इति वयं जानीमश्चेत् तस्य कृते किं कर्तव्यम् इति अपि वयं चिन्तयामः. दिस् आर् आल् द एड्वाण्टेजेस् आफ् द रैन्, गेटिङ्ग् रैन्. इफ् वी नो दिस् एड्वाण्टेजेस्, वाट् वी विल् डू, विल् ट्रै टु वर्क् फार् देट्. वर्षागमनं किमर्थम् आवश्यकम् इति अत्र दत्तमस्ति. उत्तमम्. इदानीं पर्यन्तं वयं करपत्रस्य विषये किञ्चित् चिन्तनं कृतवन्तः. अधुना वयम् अभ्यासपुस्तकं प्रति गच्छामः. उत्तमम्. अत्र शकुन्तला भगिनी भवती कर्तुम् इच्छति वा अद्य? भवती कर्तुं न वा? अस्तु. अत्र गीताञ्जलि भगिनी भवती करोति वा अधुना? गीताञ्जलि भगिनी?
आम्.
अहम् एकं प्रश्नं पृच्छामि. भवती कदा उत्तिष्ठति?
अहं लारेन्स्.
अवगतवती वा मम प्रश्नम्? अवगतवती वा भवती कदा उत्तिष्ठति?
कदा
अधुना
सप्तमं
सप्तवादने उत्तिष्ठामि.
सप्तवादने
सप्तवादने उत्तिष्ठामि. तथापि वक्तुं शक्नुमः, नो चेत् अहं प्रातःकाले उत्तिष्ठामि. तदपि समीचीनम्. अत्र सुचित्रा भगिनी भवती वदति वा? अहं कांश्चन प्रश्नं पृच्छामि. भवती कदा खादति?
अहं सार्धनववादने खादति. सार्धनववादने खादति.
किञ्चित् समीकरोतु वाक्यम्.
अहं प्रतिदिनं सार्धनववादनं खादामि.
सार्धनववादने खादामि. तत्र तथा एव भवती कदा कार्यालयं गच्छति?
अहं प्रतिदिनं नववादने कार्यालयं गच्छामि. कार्यालये गच्छामि.
कार्यालयं गच्छामि.
कार्यालये.
अनन्तरं भवती कदा पाकं करोति?
अहं प्रतिदिनं सप्तवादने पाकं करोमि.
उत्तमं. भवती कदा दूरदर्शनं पश्यति?
अहं प्रतिरात्रि अष्टवादने या नववादने अष्ट नववादने दूरदर्शनं दृष्टामि.
अहं रात्रिवेलायाम् अष्टवादनात् आरभ्य नववादनपर्यन्तं दूरदर्शनं पश्यामि.
अहं
परन्तु अत्र रात्रिवेलायां वदतु.
ओके. अहं प्रतिरात्रिवेलायाम् अष्टवादने अष्टवादने I didn't get that. Bhagini, Ashtavadane. Navavadane. Ashtavadanataha. Navavadana. Ashtavadanataha. Arabhya. Navavadanataha. Dooradarshanam Pashyami.
Navavadana Pariyantam Dooradarshanam Pashyami. Uttamadana. Itchukte Atra. भवती किं कृतवती इदानीं पर्यन्तं? यदार्थसमयम् उक्तवती. इत्युक्ते अहं प्रातःकाले षड्वादने उत्तिष्ठामि इति, इत्युक्ते यदार्थसमयम् उक्तवती. परन्तु तस्य कृते अहं प्रातःकाले उत्तिष्ठामि, अहं मध्याह्ने भोजनं करोमि, अहं रात्रिवेलायां शयनं करोमि, तदपि समीचीनं तत्र. परन्तु यदार्थसमयं न वदामः, परन्तु केवलं प्रातःकाले कार्यालयं गच्छामि, मध्याह्ने भोजनं करोमि, रात्रिवेलायां दूरदर्शनं पश्यामि इत्यपि समीचीनं. भवती एतानि कार्याणि कदा कदा करोति? भवती दूरदर्शनं कदा पश्यति?
अहं दूरदर्शनं सायङ्काले रात्रिसमये पश्यामि.
तदपि समीचीनं. भवती कदा कदा पाकं करोति?
अहं मार्निङ्ग् ऐ फोगट्
इत्युक्ते प्रातःकाले
प्रातःकाले अहं प्रातःकाले पाकनं करोमि.
भवती यदि क्रीडति चेत् कदा क्रीडति भवती?
अहं सायङ्काले क्रीडामि. सायङ्काले
क्रीडामि. सायङ्काले क्रीडामि इत्युक्ते यदार्थसमयं न उक्तवती, परन्तु केवलं प्रातःकाले मध्याह्ने इति उक्तवती. अत्र तदेव अस्ति भगिनि. अत्र षड्विंशतितमे पुटे 5.4 आभागे अत्र कानिचन वाक्यानि दत्तानि. तत् करोतु भगिनि, कदा इति दत्तमस्ति.
5.2 भगिनि,
5.4 आभागे
आभागे पेज् नम्बर् 5.
षड्विंशतितमे पुटे.
षड्विंशति
कः वदति इत्युक्ते?
सेकेण्ड् भगिनि,
कः वदति षड्विंशतितमे पुटे इत्युक्ते?
ओके, यु वाण्ट् मी टु रीड् दिस् भगिनि?
पठतु.
कदा एतेषां प्रश्नानाम् उत्तरं लिखतु. ओके. यतः भवान् कदा उत्तिष्ठति? अहं पञ्चवादने.
भगिनी अत्र यद् यथा यथा इति दत्तमस्ति.
यथा यथा भवान् कदा उत्तिष्ठति? अहं पञ्चवादने उत्तिष्ठामि. भवान् कदा विद्यालयं गच्छति? अहं अष्टवादने विद्यालयं गच्छामि. सूर्योदयः कदा भवति? सूर्योदयः प्रतिदिनं भवति.
प्रतिदिनं कदा भवति?
मार्निङ्ग् Morning is Shama. Subha, Pratakale. Pratakale, yeah. Subha.
Pratakale, Pratakale. प्रातःकाले प्रातःकाले भवति परन्तु यदि समयं वदामश्चेत् समयं यथार्थसमयं वदामश्चेत् कदा भवति सर्वे वदन्तु अत्र सन्धिसमयः कदा भवति
सुबह भवति
कदा भवति इत्युक्ते प्रातःकाले भवति तत्तु सम्यक् एव परन्तु कः वदति उत्तमम् साधारणतया षड्वादने भवति षड्वादने वा अथवा सार्धपञ्चवादने वा तथा भवति वदतु
भवती कदा क्रीडति अहं सायङ्काले क्रीडति भवती कदा पठति अहं षड्वाद सायङ्काले पठति या षड्वादने यु सेड् नाट् टु यूस् टैम् रैट् अहं
अत्र पश्यतु भगिनी भवती किम् उक्तवती
अहं सायङ्काले पठति
समीचीनं नास्ति भगिनी वाक्यं समीचीनं नास्ति किञ्चित् समीकरोतु
अहं सायङ्काले पठामि
उत्तमम् तदा भवती कदा क्रीडति
अहं मध्याह्नसमये क्रीडामि
मध्याह्नसमये क्रीडामि उत्तमं 5.4 आभागमपि करोतु
ओके एतेषाम् उत्तराणां प्रश्नं लिखतु ओके सीता सायंकाले नृत्याभ्यासं करोति सीता सीता
वदतु
कदा नृत्याभ्यासं करोति
कदा करोति
सीता सायंकाले नृत्याभ्यासं करोति
उत्तमम् अग्रिमं वाक्यं
वेङ्कटेशः षड्वादने योग्यासनं करोति वेङ्कटेशः कदा योग्यासनं करोति
वेङ्कटेशः कदा योगासनं करोति
षड्वादने वेङ्कटेशः षड्वादने योगासनं करोति
उत्तमम् अग्रिमं
माता दशवादने पाकं करोति माता कदा पाकं करोति माता दशवादने पाकं करोति सः प्रातःकाले पूजां करोति सा कदा पूजां करोति सा प्रातःकाले पूजां करोति
अत्र किं दत्तमस्ति इत्युक्ते सा पूजां करोति कदा करोति प्रातःकाले करोति यदि वयं यथार्थसमयं वदामश्चेत् सा प्रातःकाले षड्वादने वा अथवा सप्तवादने वा अथवा अष्टवादने वा पूजां करोति इति वयं तदपि वक्तुं शक्नुमः परन्तु अत्र केवलं प्रातःकाले तावदेव तावदपि पर्याप्तमेव दत्तमस्ति इत्युक्ते अत्र पश्यतु भगिनि सायङ्काले षड्वादने दशवादने प्रातःकाले इति पदानि दत्तानि तत्र तेषां विभक्तिः का
प्रातःकाले सप्तमी विभक्ति
उत्तमम् इत्युक्ते अत्र यदि वयं कदा इति पदम् इति प्रश्नं पृच्छामश्चेत् तत्र साधारणतया तस्य उत्तरं सप्तमी विभक्ते एव भवति भवती एतत् कार्यं कदा करोति इति अहं प्रश्नं पृच्छामि चेत् तदा उत्तरं किं भवति भवती कदा पठति पृच्छामि वदतु भवती कदा पठति
सायङ्काले अहं सायङ्काले पठामि
किं पठति भवती
अहं सायङ्काले संस्कृतं पठामि
उत्तमं किं पठति इत्युक्ते संस्कृतं पठति कदा पठति
सायङ्काले
उत्तमम् अन्तिमं वाक्यं करोतु
अहं मध्याह्ने भोजनं करोमि. भवती कदा भोजनं करोति? अहं मध्याह्ने भोजनं करोमि.
उत्तमं, धन्यवादः भगिनी. सर्वे अवगतवन्तः वा कदा इत्युक्ते पदस्य उपयोगं कदा कुर्मः, कथं कुर्मः इति भवन्तः जानन्ति इति अहं चिन्तयामि. ऐ थिङ्क् यु आल् अण्डर्स्टुड् हौ टु यूस् द वर्ड् कदा. अनन्तरं भगिनी अत्र कः करोति अधुना? लक्ष्मी भगिनी भवती करोति वा इदानीं? भगिनी अत्र, धन्यवादः सुचित्रा भगिनी. अद्य कः वासरः भगिनी? लक्ष्मी भगिनी वदतु. कः वासरः अद्य? कः वासरः
अद्य? मङ्गलवासरः.
उत्तमं, मङ्गलवासरः कदा?
अद्य मङ्गलवासरः.
उत्तमं, ह्यः? ह्यः अद्य मङ्गलवासरः, भवती जानाति, वयं सर्वे जानीमः एव. अद्य मङ्गलवासरः चेत् ह्यः कः वासरः? ह्यः वदतु भगिनि.
ह्यः सोमवासरः.
उत्तमं, परह्यः कः वासरः?
परह्यः भानुवासरः.
परपरह्यः कः वासरः?
प्रपर्यः शनिवासरः. शुक्रवासरः.
अद्य शनिवासरः. प्रपरह्यः शनिवासरः. उत्तमम्, अद्य मङ्गलवासरः वयं जानीमः. श्वः कः वासरः?
श्वः बुधवासरः.
परश्वः?
परश्वः गुरुवासरः.
प्रपरश्वः कः वासरः?
प्रपरश्वः शुक्रवासरः.
उत्तमं, मङ्गलवासरः कदा?
अद्य मङ्गलवासरः.
बुधवासरः कदा?
श्वः बुधवासरः.
उत्तमम्, इत्युक्ते अत्र एकवारम् अत्र सप्तविंशतितमे पुटे 5.5 भागे किं दत्तमस्ति पठतु भगिनि एकवारम्.
प्रपरह्यः परह्यः अद्य श्वः परश्वः प्रपरश्वः अत्र
भगिनि अत्र पश्यतु, अत्र प्रथमतया अद्य अद्य इति वदतु, अनन्तरं सम्यक् उच्चारयतु, सम्यक् उच्चारयित्वा तत्र पदानि वदतु. अद्य, ह्यः, परह्यः, प्रपरह्यः. तथा एव अद्य, श्वः, परश्वः, प्रपरश्वः. वदतु, तथा वदतु, सम्यक् अवधानं दत्वा उच्चारयतु.
अद्य, श्वः, परश्वः, प्रपरश्वः.
अनन्तरम्
अद्य, ह्यः, परह्यः, प्रपरह्यः.
सर्वे अवगतवन्तः वा अद्य इत्युक्ते? अद्य इत्युक्ते उत्तमं, ह्यः इत्युक्ते? ह्यः इत्युक्ते अत्र शकुन्तला भगिनी भवती करोतु अत्र. ह्यः इत्युक्ते?
यस्टर्डे.
परह्यः?
डे आफ्टर् टुमारो.
परह्यः, परह्यः इत्युक्ते लक्ष्मी भगिनी वदति वा?
डे बिफोर् यस्टर्डे.
उत्तमं. प्रपरह्यः. उत्तमं. प्रपरह्यः इत्युक्ते परह्यः, परह्यः पूर्वम्. उत्तमम्. अद्य, अद्य इत्युक्ते टुडे, अपि च श्वः इत्युक्ते
टुमारो.
परश्वः
डे आफ्टर् टुमारो.
प्रपरश्वः
टु डेस्.
उत्तमं. धन्यवादः. अनन्तरम् अत्र लक्ष्मी भगिनी भवती पठतु, अत्र किं दत्तमस्ति, अत्र रिक्तस्थानानि पूरयन्तु इति सूचना दत्तमस्ति. दत्ता पठतु.
अद्य भानुवासरः. ह्यः शनिवासरः. श्वः सोमवासरः.
उत्तमम्.
परह्य शुक्रवासरः. परश्वः मङ्गलवासरः. अद्य मङ्गलवासरः.
अद्य मङ्गल बुधवासरः. उत्तमम्. अत्र धन्यवादः भगिनि. अत्र सुब्बारा महोदय भवान् एकवारं वदति वा? अद्य, अद्य मङ्गलवासरः. अद्य मङ्गलवासरः. सोमवासरः कदा?
ह्यः सोमवासरः.
भानुवासरः कदा?
परश्वः भानु, परह्यः भानुवासरः.
भानुवासरः अथवा रविवासरः इत्यपि समीचीनं. कदा रविवासरः?
रविवासरः परह्यः.
उत्तमं. शनिवासरः कदा?
शनिवासरः परपरह्यः.
प्रपरह्यः शनिवासरः. उत्तमम्. अद्य तथा एव. अद्य मङ्गलवासरः. बुधवासरः कदा?
श्वः बुधवासरः.
गुरुवासरः कदा?
परश्वः गुरुवासरः.
उत्तमं. प्रपरश्वः कः वासरः?
परश्वः शुक्रवासरः.
शुक्रवासरः. उत्तमम्. इत्युक्ते अत्र इदानीं पर्यन्तं वयम् अत्र अद्य, ह्यः, परह्यः, परपरह्यः, श्वः, परश्वः, प्रपरश्वः इति पदानि कानि, तेषाम् अर्थः कः इति वयं ज्ञातवन्तः. अधुना वयं 5.6 भागे किम् अस्ति इति एकवारं पश्यामः. भवान् एव पठतु महोदय, अत्र किं दत्तमस्ति, शीघ्रं कुर्मः. 5.6
प्रथमवाक्यं पठित्वा प्रश्नस्य उत्तरं लिखतु. यथा अद्य षोडशदिनाङ्कः.
इत्युक्ते किम्?
अद्य टुडे इस् 16th.
उत्तमं. पठतु.
पञ्चदशदिनाङ्कः कदा? पञ्चदशदिनाङ्कः, पञ्चदशदिनाङ्कः ह्यः.
चतुर्दशदिनाङ्कः कदा?
चतुर्दशदिनाङ्कः परह्यः.
सप्तदशदिनाङ्कः कदा?
सप्तदशदिनाङ्कः श्वः. सप्तदशदिनाङ्कः.
अद्य षोडशदिनाङ्कः. सप्तदशदिनाङ्कः कदा?
सप्तदशदिनाङ्कः श्वः.
श्वः उत्तमं. द्वितीयं करोतु.
अद्य सोमवासरः, मङ्गलवासरः कदा? मङ्गलवासरः श्वः मङ्गलवासरः.
अद्य सोमवासरः, मङ्गलवासरः कदा? श्वः मङ्गलवासरः. उत्तमं. तृतीयं करोतु.
अद्य चतुर्विंशतितमदिनाङ्कः, षड्विंशतितमदिनाङ्कः कदा?
षड्विंशतितमदिनाङ्कः कदा वदतु.
षट् परह्यः परस्वः षड्विंशतिदिनाङ्कः.
श्वः कः? श्वः कः?
श्वः पञ्चविंशतिदिनाङ्कः.
पञ्चविंशतितमदिनाङ्कः. अद्य वदतु भगिनि.
तमदिनाङ्कः इत्युक्ते किम्?
तम महोदय वदतु. महोदय तमदिनाङ्कः किमर्थं वदामः? सुबारो महोदय वदतु. उत्तमं महोदय, तदेव वदतु. दिनाङ्कः इत्युक्ते
डेट्.
उत्तमं. तमदिनाङ्कः इत्युक्ते
26th.
उत्तमम्. अद्य चतुर्विंशतितमदिनाङ्कः, परन्तु षड्विंशतितमदिनाङ्कः कदा? कदा वदतु.
परश्वः षड्विंशतितमदिनाङ्कः.
उत्तमम्. अहम् एकं प्रश्नं पृच्छामि. इतोपि अद्य अहं वदामि एप्रिल् मासस्य द्वितीयदिनाङ्कः. टुडेस् एप्रिल् सेकेण्ड्. अद्य एप्रिल् मासस्य द्वितीयदिनाङ्कः, वयं जानीमः एव. परन्तु ह्यः कः दिनाङ्कः वदतु महोदय?
ह्यः एप्रिल् मासस्य एकदिनाङ्कः.
न महोदय, तथा न वक्तव्यं. राजीव् महोदय भवान् वदतु. अद्य एप्रिल् मासस्य वदतु.
एप्रिल् मासस्य त्रि दिनाङ्कं त्रितं दिनाङ्कं.
न अहं किं पृष्टवती? ह्यः ह्यः इति पृष्टवती. ह्यः एप्रिल् मासस्य प्रथमदिनाङ्कः. अवगतवान् वा महोदय? प्रथमदिनाङ्कः. उत्तमं. परह्यः कः दिनाङ्कः?
परह्यः मार्च् मासस्य एकत्रिंशत् दिनाङ्कः.
उत्तमं. मार्च् मासस्य एकत्रिंशत्तमदिनाङ्कः.
एकत्रिंशत्तमदिनाङ्कः.
त्रिंशत् तमदिनाङ्कः कदा?
त्रिंशत् तमदिनाङ्कः परह्यः.
न त्रिंशत्तमदिनाङ्कः.
त्रिंशत् तमदिनाङ्कः परह्यः.
उत्तमं. प्रपरह्यः त्रिंशत्तमदिनाङ्कः. अद्य एप्रिल् मासस्य द्वितीयदिनाङ्कः. एप्रिल् मासस्य तृतीयदिनाङ्कः कदा?
एप्रिल् मासस्य श्वः एप्रिल् मासस्य तृतीयदिनाङ्कः.
उत्तमं. परश्वः कः दिनाङ्कः?
परह्यः परश्वः एप्रिल् मास परश्वः एप्रिल् मासस्य चतुर्दिनाङ्कः
चतुर्थदिनाङ्कः उत्तमम् एप्रिल् मासस्य चतुर्थदिनाङ्कः परश्वः प्रपरश्वः कः दिनाङ्कः
प्रपरश्वः एप्रिल् मासस्य पञ्चदिनाङ्कः
पञ्चमदिनाङ्कः
एप्रिल् मासस्य पञ्चमदिनाङ्कः
उत्तमं प्रथमदिनाङ्कः द्वितीयदिनाङ्कः तृतीयदिनाङ्कः पञ्चमदिनाङ्कः षष्ठदिनाङ्कः तथा वक्तव्यम् उत्तमम् इदानीं पर्यन्तं वयम् अद्य ह्यः परह्यः प्रपरह्यः श्वः एतानि पदानि सम्यक् रीत्या वयं जानीमः यदि प्रश्नाः सन्ति चेत् पृच्छन्तु नो चेत् विरमाम
तमदिनाङ्क लैक् वाट् इस् वेन् डु यु से तमदिनाङ्क
फोर्त् डे फिफ्त् डे तथा वदामः फोर्त्
वेन् यु से विच् डे इट् इस् दट् टैम् यु हाव् टु यूस् तमदिनाङ्कः
तमदिनाङ्कः भवन्तः सर्वे जानन्ति सङ्ख्याः सङ्ख्याः वयं जानीमः एकं द्वे त्रीणि तथा वयं जानीमः परन्तु अत्र प्रथमदिनाङ्कः एकं न वदामः प्रथमदिनाङ्कः द्वितीयदिनाङ्कः तृतीयदिनाङ्कः चतुर्थदिनाङ्कः तथा एव वक्तव्यं पञ्चमदिनाङ्कः तथा एव वक्तव्यं न तु एकं द्वे त्रीणि अत्र सङ्ख्यां वदामश्चेत् तथा एव वक्तव्यं परन्तु अत्र अद्य कः दिनाङ्कः तस्य उत्तरं कथं भवति अद्य एप्रिल् मासस्य द्वितीयदिनाङ्कः तदेव समीचीनं वाक्यं कोऽपि कस्यचित् अपि प्रश्नाः सन्ति चेत् पृच्छन्तु नो चेत् विरमाम सर्वे अवगतवन्तः वा all of you understood whatever we have discussed in the class I hope you all enjoyed the class
am bhagini
atra dhanyavadah sarvesham shubharatrihi agame saptahe punah ek
dhanyavadah bhagini
dhanyavadah shubharatrihi
dhanyavadah dhanyavadah